तृतीय स्कंद
अथ षोडशोध्याय जय विजय का वैकुंठ से पतन ब्रह्मवाच इति तद्गृणता अंतेषा मुनीनां योगधर्मिणां प्रतिनंद जगादेदं वैकुंठ निलयो विभु श्री भगवान वाच एतौ तौ पार्षदो मह्यं जयो विजय एव च कदर्थीकृतमां यद्वो बह्वा क्रातामतिक्रमम् जस्ते तयोर्धृतो दण्डो भवद्भिर्मामनुव्रतये स एवानुमतोऽस्माभिर्मुनयो देवे हेलनात् तद्वः प्रसादयाम्यद्य ब्रह्म दैवं परम हि मे तद्धिदात्मकृतं मन्ये यत्स्वपुंभिरसत्कृतः जन्नामानि च गृह्णाति लोको भृते कृतागसि सुसाधुवादस्तत्कृतिं हन्ति त्वमिवामयः जस्यामृतामलजसहस्रवणावगाह सद्यः पुनात् जगदास्वपचाद्विकुण्ठः सोऽहं भवद्भ्युपलब्धसुतीर्थकीर्तिर्छिन्द्यांस बाहुमपि वः प्रतिकूलभृतिं यत्सेवया चरणपद्मपवित्ररेणु सद्यः क्षताखिलमलं प्रतिलब्धशीलम् न श्रीर्विरक्तमपि मां विजहाति जस्याः प्रेक्षालवार्थेतरे नियमान् वहन्ति नाहं तथा यजमान हविर्वितने चृतप्लुतम अदनहुत मुखेन चृतप्लुतम अदनहुत मुखेन जद्ब्राह्मणस्य मुखतश्चरतोनुघासं तुष्टस्य मय्यवहितर्निज कर्मपाकैः येषां विभर्म्यहमखण्ड विकुण्ठ योग माया विभूतिरमलाङ्घ्रिरजः किरीटैः विप्रांस्तु को न विषये अर्हणाम्भः सद्यः पुनाति सह चन्द्रललाम लोकान् ये मे तनुर्द्विजवरान् दुहतीर्मदीया भूतानि लब्धशरणानि च भेदबुद्ध्या द्रक्ष्यन्तघक्षतदृशो यै मन्यवस्तान् गृध्रारुषा मम कुशन्तधिनन्दनेतुः ये ब्राह्मणान् मयि धिया क्षिपतोऽर्चयन्तस्तुस्य धृदः स्मितसुधोक्षितपद्मवक्त्रः वर्ण्यानुरागकलयात्मजवद्गृणन्तः सम्बोधयन्त्यहमिवाहमुपाहृतस्तैः तन्मे स्वभर्तुरवसायमलक्ष्यमाणौ युष्मद्व्यतिक्रमगतिम् प्रतिपद्य सद्यः भूयो मान्तिकमितां तदनुग्रहो मे यत्कल्पतामचिरतो भूतयोर्विवाशः ब्रह्मोवाच अथ तस्योषतीं देवीं ऋषिकुल्यां सरस्वतीं न स्वाद्यमन्यदष्टानां तेषाम् आत्माप्यतृप्यत सतीं व्यदाय शृण्वन्तो लघ्वीं गुर्वर्थगह्वरां विगाह्यागाधगम्भीरां न विदुस्तच्चिकीर्षितम् ते योगमायारब्ध पार्मिष्टमहोदयं प्रोचुः प्राञ्जलयो विप्रा प्रहृष्टः शुभितत्वचः ऋष्यौचु न वयं भगवन् विद्मस्तव देव चिकीर्षितं कृतो मेऽनुग्रहश्चेत् जदध्यक्षः प्रभाषसे ब्रह्मण्यस्य परं दैव ब्राह्मणः कृते प्रभो विप्राणां देवदेवानां भगवानात्मदैवतम् त्वत्तः सनातनो धर्मो रक्षते तनुभिस्तव धर्मस्य परमो गुह्यो निर्विकारो भवान् मतः तरन्ति ह्यञ्जसा मृत्युम् निवृता जदनुग्रहा जोगिनः स भवान् किं सिदनुगृह्यति यत्परैः यं वै विभूतिरुपया तनुवेलमन्यैरर्थार्थिभिः स्वशिरसा धृतपादरेणुः धन्यार्पिताङ्घ्रितुलसी नवदाम धाम्न लोकम् मधुव्रतपतेरिव कामयाना जस्ताम् विविक्तचरितैरनुवर्तमानाम् नात्याद्रियत् परम भागवत प्रसङ्गः स त्वम् द्विजानुपथ पुण्यरजः पुनीतः श्रीवत्स लक्ष्म किमगा भगभाजनस्त्वम् धर्मस्य ते भगवतस्त्रिजुगातृभिः स्वहि पद्भिश्चराचरमिदम् द्विजदेवतार्थम् नूनम् भृतम् तदभिघातिरजस्तमश्च सत्वे नन्नो वरदया तनुवा निरस्य न त्वम् द्विजोत्तम कुलम् यदिहात्मगोपम् गोप्ता वृषः स्वर्हणेन ससुनृतेन तर्ह्येव नञ्छति शिवस्तव देवपन्ता लोको अग्रहिष्यति ऋषभस्यैतत् प्रमाणम् न त्वम् द्विजोत्तम कुलम् यदिहात्मगोपम् गोप्ता वृषः स्वर्हणेन ससुनृतेन तर्हि एव न क्षति शिवस्तव देवपन्था लोको अग्रहिष्यति ऋषभस्यै तत्प्रमाणम् तत्तेन भीष्टमिव सत्त्वनिधेर्विधित्सह क्षेमम् जनाय निजशक्तिभिरुद्धृतारेः नैतावता त्र्यधिपतेर्बत विश्वभर्तुस्तेजच्छतम् त्ववन्नतस्य सते विनोदः यं वा नयोर्दमवधी स भवान् विधत्ते वृत्तिम् वा तदनुमन्महि निर्व्यलीकम् अस्मासु वा यौचितो धृताम् स दण्डो यो नागसौ वयमयूं स्महि किल विषेण। श्रीभगवान् वाच एतौ सुरेतर्गतिम् प्रतिपद्य सद्यः संरम्भ संभृत समाध्यनुबद्ध जोगौ भूयः सकाशमुपयासतया सुयो वः श्रापो मयैव निमितस्तदवैत विप्रः। ब्रह्मोवाच अथ ते मुनयो दृष्ट्वा नयनानन्दभाजनम् वैकुण्ठम् तदधिष्ठानम् विकुण्ठम् च स्वयम् प्रभम् भगवन्तम् परिक्रम्य प्रणिपत्यानुमान्य च प्रतिजग्मुः प्रमुदिता स सन्तो वैष्णवीम् श्रियम्। भगवाननुगावाः जातम् माभयष्टमस्तु स्वम् ब्रह्मतेजसमर्थोऽपि हन्तुम् नेच्छेमतम् तु मे। एतत् पुरैव निर्दिष्टम् रमया क्रुद्धया यदा पुरापवारिताद्वारि विशन्ति मयि पारते मयि संब्रह्मयोगेन निस्तीर्ज्य ब्रह्महेलनम् प्रत्येषन्तम् निकाषम् मे काले नाल्पीय सा पुनः द्वास्थावादिश्य भगवान् विमानश्रेणीभूषणम् सर्वातिशय्या लक्ष्म्या जुष्टम् स्वम् धिष्णीमाविशत् तौ तु ग्रीवाणि ऋषभौ दुस्तराधरि लोकत हतश्रियौ ब्रह्मशापादभूताम् विगतस्मयौ तदा विकुण्ठ धिषणा तयोर्निपतमानयो हाहाकारो महानासीद् विमानाग्रेषु पुत्रका तावेव ह्यधुना प्राप्तौ पार्षद प्रौरौ हरेः दितिर्जठन् निर्विष्टम् काश्यपम् तेज उल्बणम् तयोरसुरयोरद्य तेजसा जमयोर्हि वः आक्षिप्तम् तेज एतद्धिर्भगवांस्तद्विधिच्छति विश्वस्य यः स्थितिलयोद्भवहेतुराद्य योगेश्वरैरपि दुरते योगमायः क्षेमम् विधास्यति स नो भगवांस्त्र्यधीशः तत्र स्मदीय विमृशेन कियानि हार्थः। इति श्रीमद्भागवते महापुराणे परमहंस्यां संहितां तृतीयस्कन्धे षोडशोऽध्यायः।